अथ श्रीपुरुषोत्तमस्तोत्रम्। यम उवाच, नमस्ते भगवन् देवलोकनाथ जगत्पते, क्षीरोदवासिनं देवं शेषभोगानुशायिनं, वरं वरेण्यं वरदं कर्तारमकृतं प्रभुं, विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितं, नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणं, सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम्, सर्वलोकविधातारं सर्वलोकसुखावहं, पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनं, परावराणां स्रष्टारं लोकनाथं जगद्गुरुं, श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितं, पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरं, हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणं, सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितं, कूटस्थमचलं सूक्ष्मं ज्योतिरूपं सनातनं, भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम्, नमस्यामि जगन्नाथमीश्वरं सुखदं प्रभुम्। इत्येवं धर्मराजस्तु पुराण्यग्रोधसन्निधौ स्तुत्वा नानाविधैस्तोत्रैः प्रणाममकरोत्तदा। इति श्रीब्रह्ममहापुराणे यमकृतं श्रीपुरुषोत्तमस्तोत्रम्।